We'll learn the verses of 9th chapter from text 21 to 25. Tetam.
Tetam. Tetam. Tetam.
Bhuktva.
Bhuktva. Bhuktva. Bhuktva.
Swargalokam.
Swargalokam. Swargalokam. Swargalokam.
Vishalam.
Vishalam. Vishalam.
Shine punye.
Shine punye. Shine punye. Shine punye.
Martya.
Martya. Martya. Martya.
Lokam vishanti.
Lokam vishanti. Lokam vishanti.
एवं त्रयि
एवं त्रयि एवं त्रयि एवं त्रयि
धर्मं
धर्मं धर्मं धर्मं
अनुप्रपन्ना
अनुप्रपन्ना अनुप्रपन्ना
गतागतं
गतागतं गतागतं गतागतं
काम काम लभन्ते
काम काम लभन्ते काम काम लभन्ते
तेतं भुक्त्वा स्वर्गलोकं विशालम्
एतं भुक्त्वा स्वर्गलोकं विशालम् एतं भुक्त्वा स्वर्गलोकं विशालम् एतं भुक्त्वा स्वर्गलोकं विशालम्
शीने पुण्ये मर्त्यलो मर्त्यलोकं विशन्ति
शीने पुण्ये मर्त्यलोकं विशन्ति शीने पुण्ये मर्त्यलोकं विशन्ति शीने पुण्ये मर्त्यलोकं
एवं त्रयी धर्ममनुप्रपन्ना
एवं त्रयी धर्ममनुप्रपन्ना एवं त्रयी धर्ममनुप्रपन्ना एवं त्रयी धर्ममनुप्रपन्ना
गतागतं काम काम लभन्ते
गतागतं काम काम लभन्ते गतागतं काम काम लभन्ते
तेतं भुक्त्वा स्वर्गलोकं विशालं शीने पुण्ये मर्त्यलोकं विशन्ति एवं त्रयी धर्ममनुप्रपन्ना गतागतं काम काम लभन्ते
तेतं भुक्त्वा स्वर्गलोकं विशालं शीने पुण्ये मर्त्यलोकं विशन्ति एवं त्रयी धर्ममनुप्रपन्ना गतागतं काम काम लभन्ते तेतं भुक्त्वा स्वर्गलोकं विशालं
अनन्यास
अनन्यास अनन्यास
चिन्तयन्तो मां
चिन्तयन्तो मां चिन्तयन्तो मां चिन्तयन्तो मां
ए जना
पर्युपासते 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 पर्युपासते
तेषां
तेषां तेषां तेषां
नित्याभियुक्तानां
नित्याभियुक्तानां नित्याभियुक्तानां
योगक्षेमं
योगक्षेमं योगक्षेमं योगक्षेमं
वहाम्यहं
वहाम्यहं
अनन्यास् चिन्तयन्तो मां
अनन्यास् चिन्तयन्तो मां अनन्यास् चिन्तयन्तो मां अनन्यास् चिन्तयन्तो मां
ये जना पर्युपासते
ये जना पर्युपासते ये जना पर्युपासते ये जना पर्युपासते
तेषां नित्याभियुक्तानां
तेषां नित्याभियुक्तानां तेषां नित्याभियुक्तानां तेषां नित्याभियुक्तानां
योगक्षेमं वहाम्यहम्
योगक्षेमं वहाम्यहम्
अनन्यास् चिन्तयन्तो मामे जना पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् देवता
भक्ता
यजन्ते श्रद्धयान्विता
तेपि
माम
एव कौन्तेय
यजन्ति अविधि पूर्वकम् येऽप्यनन्यदेवता भक्ता यजन्ते श्रद्धयान्विता तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् अन्यदेवता भक्ता यजन्ते श्रद्धयान्विता तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् सर्वयज्ञानां भोक्ता च प्रभुरेव च न तु माम् अभिजानन्ति अहम् हि सर्वयज्ञानां भोक्ता च प्रभुरेव च न तु मामपि जानाति तत्त्वेनातश्च वन्तिते अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च न तु मामपि जानन्ति तत्त्वेनातश्च वन्तिते सर्वयज्ञानां भोक्ता च प्रभुरेव च न तु मामपि जानन्ति तत्त्वेनातश्च वन्तिते अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च न तु मामपि जानन्ति तत्त्वेनातश्च वन्तिते यान्ति देव व्रता देवान् पितृन् यान्ति पितिर्व्रता
भूतानि
यान्ति भूतेज्य यान्ति मद्याजिनो अपि माम् यान्ति देवावृता देवान् पितृन् यान्ति पितिर्व्रता भूतानि यान्ति भूतेज्य यान्ति मद्याजिनोऽपि माम् यान्ति देवावृता देवान् पितृन् यान्ति पितिर्व्रता भूतानि यान्ति भूतेज यान्ति मद्याजिनोऽपि माम्
यान्ति देवावृता देवान् पितृन् यान्ति पितिर्व्रता भूतानि यान्ति भूतेभ्यः यान्ति
तेतं भूत्वा स्वर्गलोकं विशालं शीने पुण्ये मर्त्यलोकं विशन्ति एवं त्रयी धर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते अनन्या चिन्तयन्तो मामे जना पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहं येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विता तेऽपि मामेव कौन्तेय यजन्ति अविधिपूर्वकम् अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च न तु मामपि जानन्ति तत्त्वेन तस्त्यवन्ति ते यान्ति देवावृता देवान् पितृन्यान्ति पितिर्व्रता भूतानि यान्ति भूतेज यान्ति मद्यर्जिनोऽपि माम् गतागतं कामकामलभन्ते अनन्या चिन्तयन्तो मां ये जना पर्युपासते तेषां नित्यायुक्तानां योगक्षेमं वहाम्यहम्
हरे राम हरे राम।